श्रीगुरुभ्यो नमः। अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः। इतिहस्माहुरात्रेयादयो महर्षयः। द्रव्यमेव रसादीनां श्रेष्ठं ते हि तदाश्रयाः। पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते। अम्बुयोन्यग्निपवननभसां समवायतः। तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा। तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्। नैकदोषास्ततो रोगास्तत्र व्यक्तो रसस्मृतः। अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते। गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये। रसेषु व्यपदिश्यन्ते साहचर्योपचारतः। तत्र द्रव्यं गुरुस्थूलं स्निग्धगन्धगुणोल्बणम्। पार्थिवं गौरवस्थैर्य सङ्घातोपचयावहम्। द्रव्यशीतगुरुस्निग्ध मन्दसान्द्ररसोल्बणम्। आप्यं स्नेहन विष्यन्द क्लेदप्रह्लादबन्धकृत्। रूक्षतीक्ष्णोष्ण विशद सूक्ष्मरूपगुणोल्बणम्। आग्नेयं दाहभावर्ण प्रकाशपचनात्मकम्। वायव्यं रूक्षविशदं लघुस्पर्शगुणोल्बणम्। रौक्ष्यलाघव वैशद्य विचारग्लानिकारकम्। नाभसं सूक्ष्मविशद लघुशब्दगुणोल्बणम्। सौशिर्यलाघवकरं जगत्येव मनौषधम्। न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः। द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्। अधोगामि च भूयिष्टं भूमितोयगुणाधिकम्। इति द्रव्यं रसान् भेदैरुत्तरत्रोपदेक्ष्यते। वीर्यं पुनर्वदन्त्येके गुरुस्निग्धहिमं मृदु। लघुरूक्षोष्णतीक्ष्णं च तदेव मतमष्टधा। चरकस्त्वाह वीर्यं तद्येन या क्रियते क्रिया। नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा। गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते। समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु। व्यवहाराय मुख्यत्वात् बह्वग्रग्रहणादपि। अतश्च विपरीतत्वात् सम्भवन्त्यपि नैव सा। विवक्ष्यते रसाद्येषु वीर्यं गुर्वादयो ह्यतः। उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि च। नानात्मकमपि द्रव्यमग्निशोमौ महाबलौ। व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्। तत्रोष्णं भ्रमतृग्लानि स्वेददाहाशुपाकिताः। शमं च वातकफयोः करोति शिशिरं पुनः। ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः। जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्। रसानां परिणामान्ते सविपाक इति स्मृतः। स्वादुपटुश्च मधुरमम्लोम्लं पच्यते रसः। तिक्तोषणकषायाणां विपाकः प्रायशः कटुः। रसैरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्। किञ्चिद्रसेन कुरुते कर्मपाकेन वा परम्। गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिना। यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते। अभिभूयेतरांस्तात्तत् कारणत्वं प्रपद्यते। विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते। रसं विपाकस्तौ वीर्यं प्रभावस्तान् व्यपोहति बलसाम्ये रसादीनामिति नैसर्गिकं बलम् रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम् दन्तीरसाद्यैस्तुल्यापि चित्रकस्य विरेचनी मधुकस्य च मृद्वीक घृतं क्षीरस्य दीपनम् इति सामान्यतः कर्म द्रव्यादीनां पुनश्च तत् विचित्रप्रत्ययारब्ध द्रव्यभेदेन भिद्यते स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः उष्णो मत्स्याः पयः शीतं कटुः सिंहो न सूकरः तस्माद्रसोपदेशेन न सर्वं द्रव्यमादिशेत् इति श्रीवैद्यपतिसिंहगुप्तसूनु वाग्भटविरचितायाम् अष्टाङ्गहृदयसंहितायाम् सूत्रस्थाने द्रव्यादिविज्ञानीयो नाम नवमोऽध्यायः।